इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः रूपलाल शर्मा आदौ मुख्य वार्ताः प्रधानमन्त्री नरेन्द्र मोदी जॉर्डन देशस्य राजा अब्दुल्ला द्वितीयश्च संयुक्त रूपेण अम्मान नगरे भारत जॉर्डन वाणिज्य मञ्चं सम्बोधितवन्तौ द्वयोः राष्ट्रयोर्मध्ये आर्थिक सहयोगस्य परिवर्तन दिशि महत्वाकांक्षी योजनाश्च निरूपितवन्तौ भारतं जॉर्डन देशस्य प्रमुखेषु क्षेत्रेषु बहुविध सहमतिपत्रेषु हस्ताक्षराणि अपि कृतवन्तौ केन्द्रीय कृषि मंत्री शिवराज सिंह चौहान विकसित भारत वृत्ति प्रतिभूति अथ आजीविका अभियानम ग्रामीणीति विधेयकम लोकसभा सदन पटले अस्थापयत येन ग्रामीण वृत्तेः मूल सौकर्याणां च वर्धनं भविष्यतेति अपेक्षते निर्वाचन आयोग पश्चिम बंगाल राज्ये निर्वाचक सूचीं प्रकाशयति अनुपस्थित्या स्थानांतरणेन मृत्युना प्रतिरूपणेन वर्धितानां 58 लक्ष तो अपि अधिकानि नामानि निष्कासितानि अपि च भारत UAE देशौ भारत मध्य पूर्व यूरोप आर्थिक मार्गं प्रति प्रतिबद्धतां पुनः दृढीकर्तुं वैश्विक दक्षिणाय सहकारं सुदृढीकर्तुं च सहमतिं प्रकटितवन्तौ अथ वार्ताः विस्तरेण प्रधानमंत्री श्री नरेन्द्र मोदी जॉर्डनस्य च किंग अब्दुल्ला द्वितीय अद्य अम्माने आयोजितं भारत जॉर्डन वाणिज्य मञ्चं संयुक्त रूपेण सम्बोधितवन्तौ द्वावपि नेतारौ द्वयोर्देशयोर्मध्ये आर्थिक सहयोगार्थं नूतनान् आयामान् प्रदातुं महत्वाकांक्षी योजनानां रूपरेखां प्रस्तुतवन्तौ अत्र च द्वयोः पक्षयोः प्रमुख वाणिज्यिक प्रतिनिधयः भागं गृहीतवन्तः राजा अब्दुल्ला अवदत् यत् वाणिज्य कार्यक्रमस्य माध्यमेन महत्वपूर्ण क्षेत्रेषु सहभागिता संयुक्त निवेशादि विषयेषु च चर्चावसराः प्रादुर्भूताः राजा अब्दुल्लाः प्रधानमन्त्रिणः मोदिनः स्वागतं कुर्वन् अकथयत् यत् अहम् आशान्वितोऽस्मि यत् अद्य याः पारस्परिक चर्चाः सञ्जाताः ताभिः जॉर्डन भारतयोर्मध्ये आर्थिक निवेश सहयोगः च वर्धिष्यते प्रधानमन्त्रिणः मोदिनः नेतृत्वे भारतदेशेन प्रभूतो विकासः कृतः अपि च द्वयोः देशयोः आर्थिक सहभागितया इतोऽपि आर्थिकम् औन्नत्यं द्वयोः देशयोः भविष्यति एतदर्थं च द्वौ अपि तत्परौ स्तः प्रधानमन्त्री मोदी स्वीय सम्बोधने भारत जॉर्डन देशयोः पारस्परिक सम्बन्धाः प्रतिमाः सन्ति अपि च पृथक् प्रकृतिकाः सन्ति यत्र च ऐतिहासिको विश्वासः भविष्यस्य च आर्थिक अवसराः सम्प्रकृतियुक्ताः सन्ति अत्र च आर्थिक अवसराः समानरूपेण प्राप्स्यन्ते प्रधानमन्त्रिणा मोदिना प्रोक्तं यत् भारतदेशः जॉर्डन देशस्य तृतीयः बृहत्तमः वाणिज्यिक सहभागी वर्तते
भारत और जॉर्डन के संबंध ऐसे हैं जहां ऐतिहासिक विश्वास और भविष्य के आर्थिक अवसर एक साथ मिलते हैं कल ही मैजेस्टी के साथ मेरी बातचीत का सार भी यही था ज्योग्राफी को अपॉर्चुनिटी में और अपॉर्चुनिटी को ग्रोथ में कैसे बदला जाए इस पर हमने विस्तार से चर्चा की
एतस्य वाणिज्यिक कार्यक्रमस्य अन्तर्गतं भारतीय जॉर्डन वाणिज्यिक संघटनानां मध्ये नैकेषु सन्धिपत्रेषु ज्ञापनेषु चापि हस्ताक्षराणि भविष्यन्ति इति सम्भाव्यते वाणिज्यिक मञ्चानन्तरं प्रधानमन्त्री मोदी क्राउन प्रिंस हुसैन बिन अब्दुल्ला वर्येण सह जॉर्डन संग्रहालयस्यापि भ्रमणम् अकरोत्
मैं यहाँ आई भारतीय कंपनियों से इन अवसरों का पूरा लाभ उठाने का अनुरोध करूंगा भारत आज जॉर्डन का तीसरा सबसे बड़ा ट्रेडिंग पार्टनर है बिजनेस की दुनिया में हम लॉन्ग टर्म रिलेशनशिप बनाने आए
भारत UAE देशौ भारत मध्य पूर्व यूरोप आर्थिक मार्गं प्रति प्रतिबद्धतां पुनः दृढीकर्तुं वैश्विक दक्षिणाय सहकारं सुदृढीकर्तुं सहमतिं प्रकटितवन्तौ संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज़ ऑन AIR चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति देशत्रयस्य यात्रावधेः द्वितीयचरणे प्रधानमन्त्री श्री नरेन्द्र मोदी अद्य सायंकाले इथोपियायाः राजधान्याम् अदीस अबाबा इत्यत्र प्राप्स्यति। द्विदिवसीय यात्रायां प्रधानमंत्री इथोपिया देशं प्रति गच्छति। तत्र सः प्रधानमंत्री डॉक्टर अबी अहमद अलीना सह भारत इथोपिया देशयोः द्विपक्षीय संबंधानां सर्वेषु पक्षेषु व्यापक चर्चां विधास्यति। प्रधानमंत्रिणः श्रीमोदिनः इयम् इथोपिया देशस्य प्रथमा यात्रा अस्ति, यत्र च श्रीमोदी इथोपिया देशस्य संसदः संयुक्त सत्रमपि संबोधयिष्यति। अद्य विजयदिवसस्य अवसरे राष्ट्रपति भवने राष्ट्रपतिः परमवीर दीर्घायाः उद्घाटनम् अकरोत्। एतस्यां दीर्घायां परमवीर चक्रेण सम्मानितानां 21 विजेतॄणां चित्राणि प्रदर्शितानि सन्ति। प्रदर्शिन्याः उद्देश्यम् आगन्तुकानां जनानां हृदयेषु अस्माकं परमवीराणां नायकानां कृते श्रद्धाभावस्य आधिक्येन जागरणं स्यादिति वर्तते। एते वीराः राष्ट्रस्य रक्षायाम् अदम्यसङ्कल्पस्य अदम्यसाहसस्य चापि प्रदर्शनं कृतवन्तः सन्ति। एतस्मिन् अवसरे रक्षामन्त्री राजनाथ सिंहः, रक्षादलप्रमुख अनिल चौहानः, स्थलसेनाप्रमुख उपेन्द्र द्विवेदी, अन्य चापि गणमान्यजनाः समुपस्थिताः आसन्। उत्तर प्रदेशे अद्य प्रातःकाले मथुरा नगरे अनेकेषां बस यानानां संजात संघटात्मिकायां दुर्घटनायां 13 जनाः मृताः, 70 तो अपि अधिकाश्च जनाः व्रणिताः अभवन्। घनीभूत कुज्झ घटिकया दुर्घटनेषा मथुरा नगरस्य बलदेव क्षेत्रे यमुना द्रुतमार्गस्य उपरि संप्रवृत्ता। संजात घट्टे अस्मिन् वाहनेषु अग्निप्रकोपश्च अपि अजायत। स्थानीय आरक्षिबलेन मंडल प्रशासनेन च आपदुद्धार कार्यं जवेन समारब्धम्। प्रधानमंत्री श्रीनरेन्द्र मोदी अद्य यमुना द्रुतमार्गस्य दुर्घटनायां मृतानां जनानां विषये दुःखं प्रकटितवान्। प्रधानमंत्री कार्यालयेन प्रत्येकं मृतकस्य निकटवर्तिने सम्बन्धिने प्रधानमंत्री राष्ट्रीय सहाय्य कोषात् 2 लाख रूप्यकाणां अनुग्रह धनस्य घोषणा कृता। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथः मृतकानां शोकाकुल परिवाराणां प्रति शोक संवेदनाः प्रकटितवान्। सः मृतक परिवारेभ्यः प्रत्येकं 2 लाख रूप्यकाणां, क्षतिभूतेभ्यश्च 50,000 रूप्यकाणां आर्थिक सहायस्य घोषणाम् अकरोत्। पश्चिम बंगाल राज्ये SIR मतदातृ संशोधन प्रक्रियायां अनुपस्थित्या स्थानांतरणेन मृत्युना प्रतिरूपेण वर्धितानां 58,00,000 नामानि निष्कासितानि। प्रारूप मतदातृ सूची च प्रकाशिता। SIR इत्यस्य प्रथम चरणान्तर्गतं पश्चिम बंगाल राज्ये आहत्य 7.5 कोटि तो अपि अधिकाः मतदातारः आसन्। लोकसभायाम् अद्य वृत्तियाजीविका मिशन इत्यस्य कृते विकसित भारत प्रतिभूति विधेयक 2025 इत्यस्य प्रस्तुतिः सञ्जाता। अयं हि विधेयकः 20 वर्ष पुरातनस्य महात्मा गांधी राष्ट्रीय ग्रामीण रोजगार गारंटी अधिनियम 50-2000 इत्यस्य स्थाने संप्रति प्रवर्तयिष्यते। केंद्रीय कृषि मंत्री शिवराज सिंह चौहान विकसित भारतम 47,000 अनुरूपम् एतस्याः आधुनिक वैधानिक संरचना स्थापनायै विधेयकं प्रस्तुतवान्। एतस्य अन्तर्गतं तेभ्यः ग्रामीण परिवारेभ्यः 25-100 दिनानां श्रमिकवृत्तियाजीविका निश्चयेन प्रदीयते। तत्र च अकुशलाः वयस्काः श्रमिकाः स्वेच्छया शारीरिक श्रमार्थम् अग्रेसराः भवन्ति। श्रीचौहानावदत् यत् प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिनः नेतृत्वे निर्धनानाम् उत्थानाय नैकाः कल्याणकारिण्यः महत्वपूर्णाः योजनाः क्रियापथे आनीयन्ते।
माननीय अध्यक्ष महोदय, मैं प्रस्ताव करता हूं कि मुझे विकसित भारत गारंटी फॉर रोजगार एंड आजीविका मिशन ग्रामीण VB जी राम जी, विकसित भारत जी राम जी बिल 2025 को सभा में पूरा स्थापित करने की अनुमति दी जाए।
विधेयक से प्रस्तुति काले कांग्रेस DMK THIC सहितानां नैकेषां विपक्षी दलानां सदस्याः विधेयकस्य अस्य विरोधं कृतवन्तः। ते विपक्षी सदस्याः सदनं बलात् प्रविष्टवन्तः, अपि च विधेयकं प्रति स्वीकर्तुं प्रचण्ड अभ्यर्थनां कुर्वन्तः, विरोधस्वर घोषानपि कृतवन्तः। भारत ऋतु विभागेन स्वस्तनं यावत् उत्तरप्रदेशे मध्यप्रदेशे च अतीव घनीभूत कुहकाच्छादनस्य पूर्वानुमानं कृतमस्ति। दिल्ली पंजाब हरियाणा चंडीगढ़ पूर्वोत्तर भारतस्य च कतिपय क्षेत्रेषु आगामी दिनद्वये प्रातःकाले अल्पकुहकः भवितुमर्हति इति विभागेन अनेन उक्तमस्ति। अद्य अंडमान निकोबार द्वीपेषु विद्युत वेगेन सह मेघ गर्जना पुरसरं मीनार आख्यात झंझावात भविष्यति। अन्तर्नवदश वर्षीय क्रिकेट क्रीडा प्रतिस्पर्धायां एशिया कप इत्यस्य तृतीय समूह चरणीय क्रीडायां दुबई नगरस्य सैमर स्टेडियम इति क्रीडांगणे भारतेन मलेशिया देशं विरुध्य प्रथमतया क्रीडिता सप्त क्रीडकानां हानौ अष्टोत्तर शत चतुश्शत धावनांकाः समर्जिताः इति वार्ताः।